एष रेडियो नेपाल सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति वर्तमानेस्मिन् जगति जातीय द्वन्द्वस्य आतंकवादस्य जटिल द्वन्द्वस्य च कारणेन शान्त्यर्थं सक्रियै सैनिकै संकटः सह्यमानो वर्तते। शान्ति स्थापना सम्बद्ध बहुराष्ट्रिय अभ्यास शान्ति प्रयासस्य चतुर्थ संस्करणं ह्य सैनिक मुख्यालयस्य सैन्यालय उद्घाटयन् प्रधानमन्त्री प्रचण्ड द्वन्द्वस्य प्रकाराणां विषये सावधानः भवितुम् अनुरुणत्। शान्ति स्थापनायाः कार्यं जटिल राजनीतिक सैन्य मानवीय प्रयासस्य रूपेण विकसितमस्तीति चर्चयन् प्रधानमन्त्री प्रचण्ड कठिन समाहोयं प्रतिकृत्य वीरता कारुण्याभ्याम सेवां प्रदीयमानानां सैनिकानां कार्यं प्राशंसत। प्रशिक्षणोद्घाटन समारोहे प्रधान सेनापतिः प्रभुराम शर्मा नेपाली सेनाया विश्वेस्मिन् शान्तये संयुक्त राष्ट्रसंघाय अन्तर्राष्ट्रिय सहभागितायै च महत्त्वं प्रदीयमानम् अस्तीति असूचयत्। प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड त्रिभुवन विश्वविद्यालयस्य उपकुलपतेः नियुक्तिः प्रक्रियायामेव स्थिति स्पष्टयति। वालुवाटारवर्तिनी प्रधानमन्त्री निवासे ह्यः गोर्खा पत्रकार समाज नेपालस्य पदाधिकारिभिस्सह विहिते मेलने उद्भावितायां जिज्ञासायां प्रधानमन्त्री प्रचण्ड त्रिभुवन विश्वविद्यालयस्य उपकुलपतेः नियुक्तिः प्रक्रियायामेव स्थिति चर्चयन् सामाजिक सञ्जाले प्रचारिते विषये कथं विधापि सत्यता नास्तीति स्पष्टीकृतवान्। पत्रकारिता जगता तथ्यायां विश्वसनीयायां च सूचनायां विश्वासो विधेय इति बलं प्रददत् प्रधानमन्त्री प्रचण्ड सामाजिक सञ्जालेषु आगतां विषयम् आधृत्य धारणां न निर्मातुं साधारण नागरिकान् अनुरुणत। तदवसरे प्रधानमन्त्री प्रचण्ड गत पौष मासस्य बालकुमारी घटनाया सम्बन्धे प्राप्तं प्रतिवेदनम् आत्मना अधीयमानमस्तीति ज्ञापयन् विषयेऽस्मिन् शीघ्रं निर्णेष्यते इति असूचयत्। प्रधानमन्त्रिणा पुष्पकमल दाहाल प्रचण्डेन सह नेपाल भ्रमणे विद्यमानेन बेलायत देशीयेन विकास मन्त्रिणा एण्ड्रयू मिचेल इत्यनेन मेलवार्ता विहिता अस्ति। प्रधानमन्त्री मन्त्री परिषद कार्यालये ह्यः सम्पन्ने मेलने एतयोर्मध्ये द्विपक्षीय हितस्य पारस्परिकाभिरुचेः विकासस्य विविधायामानांश विषयेष् विमृष्टं वर्तते। तदवसरे प्रधानमन्त्री प्रचण्ड आगामिनी वैशाख मासे नेपालेन आयोक्ष्यमाणे निवेशन सम्मेलने निवेशकान् नेपालं प्रेषयितुं सहयोगाय अनुरुणदिति प्रधानमन्त्रिण सचिवालयेन ज्ञापितं वर्तते। प्रधानमन्त्री प्रचण्ड द्विपक्षीय संयन्त्रस्य वार्तया बेलायत देशीय गोर्खा सैनिकानां याचना सम्बोधयिष्यन्ते। विश्वासम् अभिव्यज्य आगामी दिनेष् अनेन अनुकूल परिणाम प्रदास्यते इति प्रावोचत्। मेलने बेलायत देशीय विकास मन्त्री चेल नेपालस्य सामाजिकार्थिक विकासाय बेलायत देशेन अतिरिक्त सहयोग विधास्यते। जलवायु परिवर्तनस्य विषये सघनं सहकार्यं विधास्यते चेति अगदत्। राष्ट्रपतिः रामचन्द्र पौडेलः निगदति वर्तमाना व्यवस्था जनतायाः त्यागेन बलिदाने च प्राप्ता स्थिति हेतुः अस्य नैरन्तरे कोऽपि सन्देहो नास्ति। नेपाल परम्परागत बौद्ध धर्मसंघस्य लुम्बिनीवर्तिना नेपाल वज्रयान महाविहारेण ह्य राष्ट्रपति कार्यालय आयोजिते राजकुल गमन कार्यक्रमे राष्ट्रपति पौडेलः बौद्ध धर्मेण नेपालः विश्वमञ्चे परिचायितः नेपालस्य गरिमा वर्धितः शान्तिः ज्ञानस्य च कृते अस्य धर्मस्य महत्वपूर्ण योगदानम् अस्तीति च अस्मरत्। कार्यक्रमे नेपाल परम्परागत बौद्ध धर्मसंघस्य चक्रेश्वरः प्राध्यापक डाक्टर नरेशमान वज्राचार्यः सर्वेषां धर्माणां संस्कृतिनां च संरक्षणार्थं राज्येन महत्वपूर्ण भूमिका निर्व्यूढेति विषये प्रसन्नताम् अभिव्यज्य वर्तमानावस्थायाम् एतादृशै कार्यै इतोप्यधिकं स्थानं लप्स्यते इति अपेक्षा आत्मना विहिता स्थिति अभाषत। एतदवसरे राष्ट्रपतिः पौडेलः लुम्बिन्यां स्थितात् नेपाल वज्रयान महाविहारात् दीक्षितेभ्यः भिक्षुभ्यः संघदानं व्यदधात्। सर्वकारेण सशस्त्र द्वन्द्वस्य क्रमे आहतानाम् अपाङ्गानां च प्रतिशत निर्धारण पुनरावलोकन कार्यविधेः परिमार्जनाय प्रस्ताव निर्माण समितेः संघटनार्थं निर्णीतमस्ति। मन्त्री परिषद निर्णयान् सार्वजनिक कर्तुं ह्यः संचार सूचना प्रविधि मन्त्रालये आयोजिते पत्रकार सम्मेलने संचार मन्त्री रेखा शर्मा एतत् कार्यविधिम् अधीत्य परिमार्जितं प्रस्तावं प्रस्तोतुं गृह सचिवस्य संयोजकत्वे सम्बद्ध पक्षस्य प्रतिनिधि सहितां समितिं संघटयितुं निर्णीतम् अस्तीति असूचयत्। संचार मन्त्री शर्मा श्रीलंका देशे बन्दी जीवनम् यापयताम् नेपाली नागरिकाणां चेत बहादुर थापा, सुखबहादुर तामाङ, टेक बहादुर तामाङ चेत तेषां मानवीयताम् आधृत्य दण्डम् क्षमयितुं नेपालस्य राष्ट्रपतिना श्रीलंका देशस्य राष्ट्रपतये अनुरोध पत्रम् प्रेषयितुं सर्वकारेण राष्ट्रपतये परामर्शनाय निर्णीतमिति अज्ञापयत। एवमेव उपवेशेन एतत् विक्रम वर्षीयां राष्ट्रिय प्रसारण द्वादश संशोधन नियमावलीम् एतत् वर्षीयां बन्दीजन कारावासन व्यवहार सम्बद्धां नीतिं स्वीकर्तुं वैद्युत सुशासन आयोग सम्बद्धस्य विधेयकस्य निर्माणाय स्वीकृतिं प्रदातुं च निर्णीतम् अस्तीति मन्त्री शर्मा असूचयत। नेपाली कांग्रेस दलस्य महासमितेः उपवेशे ह्यस्तनात् दिवसात् अन्तरसत्रम् प्रारब्धमस्ति। ललितपुरस्य गोदावरी स्थाने सञ्चल्यमाने महासमितेः उपवेशे ह्य उपसभापतिः पूर्णबहादुर खड्का दलस्य नीति प्रस्तावम्, महामन्त्री गगन कुमार थापा सांगठनिकम् प्रस्तावम्, अपर महामन्त्री विश्वप्रकाश शर्मा सामयिक राजनीतिक प्रस्तावम् च प्रस्तुतवन्तः। उपवेशे नीति प्रस्तावम् प्रस्तुवन् उपसभापति खड्का विपुल दलत्वात् नेपाली कांग्रेस दलेन लोकतन्त्रस्य स्थायित्वस्य सबलीकरणस्य च नेतृत्वम् कर्तव्यम् इत्यवोचत्। महासमितेः उपवेशे महामन्त्री गगन कुमार थापा नेपाली कांग्रेस दलेन आगामिनी निर्वाचने एकाकिना आत्मबलेन प्रतिस्पर्धनीयम् इति प्रतिपादयन् सांगठनिक प्रस्तावम् प्रस्तौत। अपर महासचिव विश्वप्रकाश शर्मा दलस्य पक्षतः प्रत्येकम् स्तरेषु जनप्रतिनिधिनाम् कार्यकाल निर्धारणीय इति प्रस्तावेन सहितं सामयिक राजनीतिकं प्रतिवेदनं प्रस्तौत। उपवेशे दलस्य प्रवक्ता अर्थमन्त्री श्री डाक्टर प्रकाश शरण महत आर्थिक्यावस्थया सम्भावनया भाविन्या दिशया च सम्बद्धं प्रस्तावं लेखा समितेः संयोजक श्याम कुमार घिमिरे लेखा परीक्षण प्रतिवेदनं च प्रस्तुतवन्तौ। फाल्गुनस्य सप्तम दिवसात् सोमवासरात् प्रारब्ध महासमितेः उपवेशः श्व दशम दिवसं यावत् सञ्चलति। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली भाषते शान्ति प्रक्रियायाः अवशिष्टानि कार्याणि अविलम्बतया सम्पादनीयानि। ललितपुरस्य च्यासलस्थिते दलस्य केन्द्रीय कार्यालये ह्यस्तनात् दिवसात् प्रारब्धम् दल केन्द्रीय समितेः उपवेशम् सम्बोधयन् अध्यक्ष ओली पीडितानाम् जनानाम् अनुकूलतया समस्याम् समाधातुम् आत्मना अपेक्षितमस्तीति अवोचत। एमाले दलस्य केन्द्रीय समितेः उपवेशे षट्सु कार्यसूचीषु परामृश्यते। उपवेशे दलस्य निर्माणे दिष्टानां समस्यानां समाधानोपायेषु जनपरिचालनस्य सन्दर्भे सामयिक प्रस्तावे च विमृक्ष्यते इति एमाले दलेन ज्ञापितं वर्तते। एवमेव समग्रतया दलस्य सांगठनिकस्य दलशुद्धिकरणस्य सुदृढीकरणस्य च विषयेषु अपि विमृक्ष्यते इति एमाले दलेन ज्ञापितं वर्तते। उपवेशः श्व समाप्तिं यच्छति। बेलायत देशेन व्यवसाय नेपाल इत्यायोजनायै हरित विकास कार्यक्रम परियोजनाया क्रियान्वयनाय च सप्तकोटय स्टर्लिङ पाउण्ड मुद्रा अर्थात आसन्न एकादशाब्जानी सप्तति कोटयश्च रूप्यकाणि अनुदान सहयोगरूपेण प्रदास्यन्ते। नेपालस्य भ्रमणे विद्यमानस्य बेलायत देशीय विकास मन्त्रिण एण्ड्रू मिचेल इत्यस्य, अर्थमन्त्रिण डाक्टर प्रकाश शरण महत इत्यस्य च उपस्थितौ अनुदान सहयोग सम्बद्धे संविदापत्रे हस्ताक्षरितं वर्तते। समाचारः।